अग्ना विष्णु सजोषसे मा वक्षं दुहाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रथवश्च मे प्रजतिश्च मे प्रतिष्ठ मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे कुश्च मे चित्तञ्च महाधीतञ्च मे वाञ्च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे बलञ्च महोजश्च मे सहश्च महायुश्च मे जना च महात्मा च मे तनोश्च मे धर्म च मे ब्रह्म च मेऽङ्गानि च मे स्थापि च मे पदोपुंषि च मे शरीराणि च मे जैक्षं च महाभिभक्तं च मे मञ्जश्च मे भामश्च मे मष्टमेऽम्भश्च मे हेमा च मे महिमा च मे महिमा च मे प्रशिमा च मे भस्मा च मे द्राभुजा च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्रिभिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुरतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यं च मे सुखं च मे सुपदं च मरुद्धं च मरुद्धिश्च मे कृतं च मे कृत्तिश्च मे मतिश्च मे सुमतिश्च मे कञ्च मे मजश्च मे प्रियञ्च मे रुकामश्च मे कामश्च मे सौमनसश्च मे भक्तं च मे तेजश्च मे वश्च मे यजश्च मे बलश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोच्च मे प्रसोच्च मे शीलं च मे लयश्च मरुदं च मे व्रतं च मे जन्मं च मे नाम च मे जीवादुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सूढा च मे सुदिनं च मे